इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेश हेगडे अथ वार्ताः प्रधानमन्त्रिणः श्रीनरेन्द्रमोदिनः अथ ब्राजिलस्य राष्ट्रपतेः लुईस इनासियो लूला ड सिल्वा इत्यस्य च मध्ये ह्यः दूरभाषामाध्यमेन वार्तालापः अभवत् एकस्मिन् वक्तव्ये प्रधानमन्त्री कार्यालयेन सूचितं यत् दूरभाषावार्तालापस्य समये द्वयोः राष्ट्रनायकयोः मध्ये व्यापार प्रौद्योगिकी ऊर्जा रक्षा कृषि स्वास्थ्य इत्यादिषु क्षेत्रेषु सहकार्यं वर्धयितुं सहमतिः अभवत् तौ परस्परहितस्य क्षेत्रीय वैश्विक विषयेषु अपि विचार विनिमयं कृतवन्तौ कार्यालयेन सूचितं यत् भारत ब्राजिल रणनीतिक सहयोगस्य नूतन उच्चतां प्रति नेतुं द्वौ नेतारौ स्वप्रतिबद्धतां पुनरुक्तवन्तौ प्रधानमन्त्री श्रीनरेन्द्रमोदी प्रोक्तवान् यत् भारतं स्वकीयानां कृषकाणां मत्स्यपालकानां पशुपालकानां च हितविषये कदापि सन्धिं न करिष्यति ह्यः नवदिल्ल्याम् एमएस स्वामिनाथन शताब्दी अन्ताराष्ट्रिय सम्मेलनं सम्बोधयता प्रधानमन्त्रिणा एतद्वक्तव्यं सबलं प्रतिपादितं यत् कृषकाणां कल्याणम् एव तस्य सर्वकारस्य सर्वोच्च प्राथमिकता वर्तते सः अवदत् यत् कृषकाणाम् आयं वर्धयितुं कृषिकार्ये व्ययं न्यूनीकर्तुञ्च सर्वकारः निरन्तरं कार्यं कुर्वन् अस्ति सः अवदत् यत् सर्वकारेण कृषकाणां शक्तिः राष्ट्रप्रगतेः आधाररूपेण अंगीकृता अस्ति
हमारे लिए अपने किसानों का हित सर्वोच्च प्राथमिकता है भारत अपने किसानों के पशुपालकों के और मछुआरे भाई बहनों के हितों के साथ कभी भी समझौता नहीं करेगा और मैं जानता हूं व्यक्तिगत रूप से मुझे बहुत बड़ी कीमत चुकानी पड़ेगी लेकिन मैं इसके लिए तैयार हूं मेरे देश के किसानों के लिए मेरे देश के मछुआरों के लिए मेरे देश के पशुपालकों के लिए आज भारत तैयार है
प्रधानमंत्रिणा धान्य जूटानाम् उत्पादकेषु देशेषु प्रथमः वर्तते सः अवदत् यत् गतवर्षे भारते खाद्यान्नस्य सर्वाधिकम् उत्पादनं संसूचितम् सः अवदत् यत् डॉ स्वामिनाथन वर्यः भारतं खाद्योत्पादने स्वावलम्बनं प्रतिनेतुम् आन्दोलनस्य नेतृत्वं कृतवान् सः जलवायु प्रतिरोधिनां सस्यानाम् अधिकाधिकान् सस्यप्रकारान् उष्णप्रतिरोधि सस्यानि च विकसितुं ध्यानस्य आवश्यकतायाः सबलं प्रतिपादनम् कृतवान् राष्ट्रिय सुरक्षा परामर्शदः अजीत डोभालः ह्यः मास्कोनगरे रूस देशस्य राष्ट्रपतिना व्लादिमीर पुटिन इत्यमुना सह मिलितवान् अतः पूर्वं श्री डोभालः रूस देशीयेन सुरक्षा परिषदः प्रमुखेन सर्गेई शोइगु इत्यनेन सह मिलितवान् एकस्मिन् वक्तव्ये श्री डोभालः अवदत् यत् भारतस्य रूस देशेन सह विशिष्टाः पुरातन सम्बन्धाः सन्ति तथा च अनेन सम्बन्धानां महत्वं मूल्यं च प्रतिपद्यते सः अवदत् उभयोपक्षयोः उच्चस्तरीय उपवेशनम् आसीत् तथा च अस्मिन् उपवेशने अतीव महत्वपूर्णं योगदानं प्राप्तम् श्री डोभालेन इदमपि उक्तं यत् रूसस्य राष्ट्रपतिः व्लादिमीर पुटिन शीघ्रमेव भारतम् आगमिष्यति तिथयः च प्रायः अन्तिमरूपेण निर्धारिताः सन्ति निर्वाचन आयोगेन लोकसभायां प्रतिपक्षस्य नेता राहुल गांधी इत्यनेन कृताः मतदातृसूच्यां दत्तांशपरिवर्तनस्य मिथ्यारोपाः खण्डिताः सोशल मीडिया तथ्यपरीक्षायां निर्वाचन आयोगेन एते आरोपाः भ्रामकाः इत्युक्त्वा कथितं यत् यदि राहुल गांधी यत् वदति तत्सत्यं मन्यते तर्हि तेन निर्वाचननियमानुसारं घोषणापत्रे शपथपत्रे वा प्रकाशयित्वा हस्ताक्षरं कर्तव्यमिति आयोगेन इदमपि उक्तं यत् यदि विपक्षनेता स्वस्य वचने विश्वासं न करोति तर्हि सः अमूर्त निष्कर्षेषु आगत्य देशस्य नागरिकान् न भ्रामयतु इति अण्डर 19 एशियन बॉक्सिंग प्रतियोगितायां बैंकॉक नगरे ह्यः पञ्च पुरुष मुक्केबाज क्रीडकैः स्वस्व भारवर्गेषु उपान्त्यचक्र प्रवेश पुरस्सरं भारतस्य पदकस्य संख्या 12 यावत् प्रवर्धिता इति वार्ताः